गीता साधक संजीवनी तीसरा अध्याय श्लोक 23 से 33 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
यदिहं नवर्षेयं जातु कर्मण्यतन्द्रित मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। शङ्करस्य च कर्ता स्यामुपहर्ण्यामि महाप्रजा सक्ता कर्मण्य विद्वांसो यथा कुर्वन्ति भारत कुर्याद्विद्वांस्तथा सक्तस् चिकीर्षोर्लोकसङ्ग्रह। न बुद्धिभेदं जनये ज्ञानं कर्मसङ्गिनां दोषये सर्वकर्माणि विद्वान् युक्तः समाचरन् प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्ववेत्तु महाबाहो गुणकर्मविभागयो गुणागुणेषु वर्तन्त मत्वा न सज्जते प्रकृतेर्गुणसम्मूढा सज्जन्ते गुणकर्मसु। तान् कृष्णविलोमन्दान् कृष्णविन्नविचालये मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युज्यस्व विगतज्वर। ये मे मतमिदं नित्य मनोते सन्ति मानवा श्रद्धावन्तो न सूयन्तो मोच्यन्ते तेऽपि कर्मभिः। ये ते तदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढास्तान् वेद्दिनस्तान चेतस सदृशं चेष्टते स्वस्या प्रकृतिर्ज्ञानवानपि प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति। सदृशं चेष्टते स्वस्या प्रकृतिर्ज्ञानवानपि प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति।
वसुदेव सुतं देवं कंसचारुरमार्दनं